इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। नवदिल्ल्यां प्रधानमन्त्रिणः नरेन्द्रमोदिनः आवासे एनडीए इति घटकानाम् उपवेशनं प्रचलति। भाजपेति दलस्य वरिष्ठ नेता महाराष्ट्रस्य उपमुख्यमन्त्री च देवेन्द्र फडणवीसः राज्ये दलस्य असन्तोष प्रदर्शनस्य पूर्णम् उत्तरदायित्वं स्वीकृतवान्। ओडिशायाः मुख्यमन्त्रिणा नवीन पटनायकेन अद्य भुवनेश्वरस्थिते राजभवने राज्यपालाय रघुवर दासाय स्वीय त्यागपत्रं प्रदत्तम्। त्रयोविंशत्यधिकद्विसहस्रतमे वर्षे देशे समस्त सस्योत्पादनम् अष्टाशीत्यधिकद्विसहस्रोत्तरत्रिसहस्रलक्ष टनपरिमितं यावत् भवति इति अनुमानम् अस्ति। अपि च विंशति प्रतिविंशति विश्वचषक प्रतिस्पर्धायां भारतीयदलम् आयरलैंड दलेन सह न्यूयॉर्क नगरे प्रतिस्पर्धिष्यति। अथ वार्ताः विस्तरेण। नवदिल्ल्यां प्रधानमन्त्रिणः नरेन्द्रमोदिनः आवासे एनडीए इति घटकानाम् उपवेशनं प्रचलति। उपवेशने नेतारः तृतीयवारं क्रमशः नरेन्द्रमोदिनः नेतृत्वे नूतन सर्वकारस्य निर्माणार्थं भविष्याधारित कार्यपद्धत्यां चर्चां करिष्यन्ति। तेलुगुदेशम पार्टी टीडीपी प्रमुखः एन चन्द्रबाबू नायडू, जनता दल यूनाइटेड प्रमुखः एवं बिहारस्य मुख्यमंत्री नीतीश कुमारः एवं लोक जनशक्ति पार्टी रामविलास प्रमुखः चिराग पासवानः अपि च एनडीए घटकेत्यस्य अन्ये नेतारः सम्मिलिताः सन्ति। प्रधानमन्त्री नरेन्द्रमोदी अद्य राष्ट्रपति भवने राष्ट्रपति द्रौपदी मुर्मू इत्यनया सह मिलित्वा केन्द्रीय मन्त्री परिषदा सह स्वीय त्यागपत्रं प्रदत्तवान्। राष्ट्रपतिः त्यागपत्रं स्वीकृत्य प्रधानमन्त्रिणः केन्द्रीय मन्त्रिपरिषदा च नूतन सर्वकारस्य संघटनं यावत् पदे यथावदेव भवितुम् आग्रहं कृतवती। भाजपेति दलस्य वरिष्ठ नेता महाराष्ट्रस्य उपमुख्यमन्त्री च देवेन्द्र फडणवीसः राज्ये दलस्य असन्तोष प्रदर्शनस्य पूर्णम् उत्तरदायित्वं स्वीकृतवान्। सः उपमुख्यमन्त्री पदात् स्वीय त्यागपत्रं प्रदातुं प्रस्तावम् अयच्छत्। यदि केन्द्रीय नेतृत्वम् अनुमतिं प्रदास्यति तर्हि सः पदात् त्यागपत्रं दास्यति इति च अवदत्। सः अवदत् यत् त्यागपत्रस्य अनन्तरं सः राज्ये आगामि विधानसभा निर्वाचनस्य प्रचारार्थं स्वसमयं प्रदास्यति इति। चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य लोकसभा निर्वाचनस्य मतगणनायाः घोषणानन्तरं सर्वकारस्य निर्माणार्थं प्रयत्नाः तीव्रः अभवन्। त्रिचत्वारिंशदधिकपञ्चाशत् लोकसभासनानां परिणामाः उद्घोषिताः। एनडीए इत्यनेन दलेन द्विनवत्यधिकद्विशतम् आसनानि विजित्य अतिमतं प्राप्तम्। इण्डिया संयुतिः त्रयस्त्रिंशदधिकद्विशतम् आसनानि विजितवत्। भारतीय जनता पार्टीति दलेन एकाकी एव चत्वारिंशदधिकद्विशतम् आसनानि गृहीतानि। तेलुगुदेशम पार्टी दलेन षोडश अपि च जदयू दलेन द्वादश आसनानि विजितानि। तत्रैव कांग्रेस दलेन नवनवतिः, समाजवादी पार्टीति दलेन सप्तत्रिंशत्, तृणमूल कांग्रेस दलेन नवविंशतिः, डीएमके दलेन च द्वाविंशतिः आसनानि विजितानि। ओडिशायाः मुख्यमन्त्रिणा नवीन पटनायकेन अद्य भुवनेश्वरस्थिते राजभवने राज्यपालाय रघुवरदासाय स्वीय त्यागपत्रं प्रदत्तम्। राज्ये सद्य एव समाप्ते विधानसभा निर्वाचने स्वपक्षस्य विजु जनता दलस्य पराजयानन्तरं तस्य त्यागपत्रम् आगतम्। ध्येयं वर्तते यत् श्रीपटनायकः ओडिशा राज्यस्य सर्वाधिक दीर्घकालं यावत् मुख्यमन्त्री रूपेण अस्ति, यः पञ्चवारम् अपि कार्यं कृतवान्। यो हि चतुर्विंशतिः वर्षाणि त्रयः मासाः च प्रसृतः। सः प्रथमं वारं द्विसहस्रतमे वर्षे मार्च मासस्य पञ्चमे दिनांके ओडिशा राज्यस्य मुख्यमन्त्रिरूपेण शपथग्रहणं कृतवानासीत्। विजु जनता दलस्य भाजपा दलेन द्वारा आश्चर्यजनक पराजयः अभवत्। ओडिशा विधानसभायां भाजपेति दलेन सप्तचत्वारिंशदधिकैकशत आसनेषु अष्टसप्ततिः आसनानि विजितानि। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। त्रयोविंशत्यधिक द्विसहस्र चतुर्विंशत्यधिक द्विसहस्रतमे वर्षे देशे समस्त सस्योत्पादनम् अष्टाशीत्यधिक द्विशतोत्तर त्रिसहस्र लक्ष टनपरिमितं यावत् भवति इति अनुमानमस्ति। कृषिमन्त्रालयेन प्रकाशितस्य प्रमुख कृषि सस्यानां तृतीयस्य अग्रिमानुमानस्य अनुसारं समस्त तण्डुलोत्पादनं सप्तषष्ट्यधिक त्रिशतोत्तर एकसहस्र लक्ष टनपरिमितं भविष्यति इति। गोधूमस्य उत्पादनम् ऊनविंशत्यधिकैकशतोत्तर एकसहस्र लक्ष टनपरिमितात् अधिकं भविष्यति इति अनुमानमस्ति। अद्य विश्व पर्यावरण दिवसो वर्तते। अयं हि दिवसः पर्यावरणं प्रति जागरूकतां संवर्धयितुं पर्यावरण सम्बद्ध प्रसंगान् च आधृत्यैव आमान्यते। संयुक्त राष्ट्रस्य नेतृत्वे अयं एको वैश्विक कार्यक्रमो वर्तते। अस्य दिनस्यारम्भः संयुक्त राष्ट्र महासभाद्वारा द्विसप्तत्यधिक नवदशतमे वर्षे मानव पर्यावरणे स्टॉकहोम सम्मेलनावधौ जातः। भारत ऋतु विज्ञान विभागेन आगामिषु पञ्च दिवसेषु देशस्य उत्तर पश्चिमीय भागेषु विद्युद्योतनेन तीव्र वायुना च सह वृष्टेः पूर्वानुमानं कृतम्। अस्मिन्नेव काले उत्तर पश्चिमीय पूर्वोत्तर भारतस्य च केषुचित् भागेषु न्यूनतापतरंगस्य स्थितिः यथावदेव भवितुं शक्नोति। विभागेन उक्तं यत् पश्चिम विक्षोभस्य समीपागमन कारणात् जम्मूकश्मीर लद्दाख गिलगित बाल्टिस्तान मुजफ्फराबाद हिमाचल प्रदेश उत्तराखण्ड पंजाब हरियाणा राजस्थान उत्तर प्रदेश इत्येतेषु राज्येषु अस्य मासस्य अष्टदिनांकपर्यन्तं वज्रपातेन विद्युत् वायुप्रवाहेन च सह निम्नवृष्ट्याः अतीव सम्भावना विद्यते। दिल्ल्यां सम्प्रति सामान्यतया मेघाच्छादित आकाशेन वज्रपातेन च सह वृष्टिः भवितुं शक्नोति इति। राष्ट्रिय राजधान्याम् अधिकतमं तापमानं प्रायः 43 डिग्री सेल्सियस मितं भवितुं शक्नोति। विश्वस्य अनेकैः नेतृभिः लोकसभा निर्वाचने सततं तृतीय वारमपि विजयस्य प्राप्ते अनन्तरं प्रधानमन्त्रिणे नरेन्द्रमोदिने अपि च भारतीय जनता पार्टीति दलाय वर्धापनानि प्रदत्तानि। इटली मॉरिसस भूटान नेपाल मालदीव श्रीलंका देशाः प्रधानमन्त्रिणं स्वीय शुभकामनाः प्रख्यापितवन्तः। एकस्मिन् संचार सन्देश पटले श्रीलंकायाः राष्ट्रपतिः रानिल विक्रमसिंघे शुभकामनाः प्रयच्छन्। भारतेन सह सुदृढ सहभागित्वाय कामनां कृतवान्। भूटानस्य प्रधानमन्त्रिणा शेरिंग तोबगे इत्यनेनापि उभयोः देशयोर्मध्ये स्थापित सम्बन्धान् इतोपि सुदृढीकर्तुं निज आशा प्रकटिता। प्रधानमन्त्री नरेन्द्रमोदी अपि प्रदत्त शुभकामनाभ्यः विश्वनेतृन् प्रति स्वकृतज्ञतां प्रकटितवान्। उक्तवान् च यत् भविष्यकालिके कस्मिन्नपि कार्ये असौ देशैः सह मिलित्वा कार्यं निष्पादयिष्यति। राष्ट्रिय परीक्षा अभिकरणं चिकित्सकीय स्नातक प्रवेश परीक्षायाः नीट यूजी इत्याख्यायाः परिणामः उद्बोधितः। अभ्यर्थिनः exams.nta.ac.in नीट इत्यस्मिन् अन्तर्जालपटले द्रष्टुं शक्ष्यन्ति। इयं परीक्षा मई मासे पंचमे दिनांके आयोजिता। अन्ते च क्रीडा वार्तासु, विंशति प्रतिविंशति विश्व चषक प्रतिस्पर्धायां भारतीय दलम् अद्य स्वीयाभियानस्य शुभारम्भो करिष्यति। न्यूयॉर्क नगरे भारतस्य सामुख्यम् आयरलैंड दलेन सह भविष्यति। प्रतिस्पर्धायाः प्रसारणम् रात्रौ अष्टवादनतः भविष्यति। ह्यः जाते द्वन्द्वे नीदरलैंड दलेन नेपाल दलं षड् स्तोभैः पराजितम् इति वार्ताः।